लोकः कर्म ततोस्तु सोस्तु च परे स्पन्दात्मकं कर्म तत् तान्यस्मिन् करणानि सन्तु चिदचेद् व्यापादनं चास्तु तत् रागादीनुपयोग भूमि मनयन् ज्ञानं भवन् केवलं बन्धं नैव कुतोऽप्यपैत्ययमहो सम्यग्दृगात्माध्रुवम्।